एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः अद्य संघीय संसदः संयुक्तोपवेशे प्रस्तुयन्ते। राष्ट्रपतिना रामचन्द्र पौडेलेन अद्य दिवाचतुर्वादने संयुक्तोपवेशे सर्वकारस्य नीति कार्यक्रमाणां प्रस्तुतेः कार्यक्रमोऽस्तीति संघीय संसद सचिवालयो ज्ञापयति। प्रतिनिधिसभाया गतदिवसीयोपवेशे सभामुखः देवराज घिमिरे एतद्विषयक पत्रस्य विवरणं श्रावयन् अद्य दिवा पादोन चतुर्वादने संसदः सम्पूर्णान् सदस्यान् निर्धारितं परिधानं धृत्वा उपस्थाय आसनं ग्रहीतुं निरदिशत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते भ्रष्टाचारे संलग्नान् दोषिणो दण्डयितुं सर्वकारः दृढतया क्रियाशीलो वर्तते। प्रतिनिधिसभायाः गतदिवसीयोपवेशे शेरबहादुर कुंवर, प्रेम सुवाल, रामहरी खतिवड़ा, विद्या भट्टराई, ज्ञानबहादुर साई सहितैः सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री प्रचण्डः अवदत् भूटान देशीय शरणार्थी प्रकरणस्य अपराधे निष्पक्षम् अनुसन्धानं विधीयमानं वर्तते। प्रधानमन्त्री प्रचण्डः भ्रष्टाचारस्य कस्मै अपि अपराधिने उन्मुक्तिः न दीयते इति चर्चयन् अकथयत् दोषिणां न उन्मोचनत्वेन निर्दोषाणां दण्डन निवारणत्वेन च अनुसन्धानं निष्कर्षं प्रापयिष्यते। प्रधानमन्त्री प्रचण्डः नागरिकता विधेयकस्य मासाभ्यन्तरे निर्णयनत्वेन विमृश्यमानमस्ति अबोधयत्। सांसदेन दीपक कार्किणा उत्थापितं प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः प्रावोचत् नागरिकता सम्बद्धं नवीनं विधेयकम् आनेतव्यम्, राष्ट्रपति कार्यालये विचाराधीनं विधेयकं प्रमाणीकर्तव्यम् इति विषये विमर्शनं सञ्चलदस्ति। सांसदेन ईश्वरी देवी न्यौपाने विधया पुरस्कृतं प्रश्नं समादधानः प्रधानमन्त्री प्रचण्डः विद्यालयानां संरचनागताय भौतिकाय च सुधाराय स्थानीय सर्वकारेण सह समन्वयं विधाय अग्रे बाध्यते इत्यभासत। प्रधानमन्त्री प्रचण्डः अब्रवीत् नेपाले एव रासायनिक मलस्य उत्पादनस्य सम्बन्धे सम्भाव्यताध्ययन कार्यं जायमानं वर्तते। प्रधानमन्त्री प्रचण्डः वर्तमानार्थिक वर्षस्य प्रथम नवमासानाम् अवधौ नेपाली विद्यार्थिनां वैदेशिकाध्ययनाय प्रस्थानात् सप्तषष्टिः अब्जानी एकोनविंशतिः कोटयश्च रूप्यकाणि वैर्भूतानीति ज्ञापयन् एतस्मिन् अवधौ त्युत्तर नवशतस्य अब्जानाम् एकोनचत्वारिंशतः कोटीनां च रूप्यकाणां विप्रेषणं प्राप्तमिति अकथयत्। प्रधानमन्त्री प्रचण्ड माओवादी योद्धी शिविरे भ्रष्टाचारे प्रमाणिते सति आत्मनः कारावासनाय तत्परतास्तीति अब्रवीत्। उपवेशे सांसदेन ज्ञानबहादुर साईना योद्धी शिविरस्य विषये उत्थापितं प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः अगदत् योद्धी शिविरस्य सम्बन्धे सर्वे विषयाः अनुसन्धातुं शक्यन्ते। प्रधानमन्त्रिणा प्रचण्डेन उक्तं शान्ति प्रक्रियायाः संक्रमणकालिक न्यायस्य च विषयः विस्तृत शान्ति संविधायाः मर्म भावनयोः अनुसारेणैव निर्णेष्यते। सांसदेन पूर्णबहादुर घरती इत्यनेन शान्ति प्रक्रियायाः अवशिष्ट कार्याणां निर्णयनस्य विषये उत्थापितं प्रश्नं समादधानः प्रधानमन्त्री प्रचण्डः अवोचत् सत्यनिरूपण मेलायोगेन विलुप्त जनानुसन्धानायोगेन च सम्बद्धं विधेयकं संशोधनस्य क्रमेऽस्ति, तत्र दलानां मध्ये प्रायः सहमतिर्धृता वर्तते। सांसदेन पदमगिरि इत्यनेन प्रस्तुतं प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः अवासत करस्य सीमायाः विस्तारकारिणी राष्ट्रक्षरण राष्ट्रिय धनपलयनावैध क्रियाकलापानां कठोरेण नियन्त्रणकारिणी च नीति सर्वकारेण अवलम्बिता वर्तते। प्रधानमन्त्री प्रचण्डः लालायोगस्य प्रतिवेदनस्य सार्वजनिकरणं सर्वोच्च न्यायालयस्य निर्णयस्य कारणेन अवरुद्धमिति सूचयन् अगदत् वैधानिक जटिलतां निवार्य अग्रे वर्धितव्यम्। सांसदाभ्यां शिश्र खनाल गंगाराम चौधरीभ्यां पुरस्कृतं प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः एतद् उक्तवान्। प्रधानमन्त्री प्रचण्डः अवदत् टीकापुर घटनायां संलग्नतायाः आरोपेण आजन्म कारावासस्य श्रावितदण्डनस्य रेशमलाल चौधरिणो विषयः शीघ्रं निर्णेष्यते। सांसदाभ्यां दिलेन्द्र प्रसाद बडु रघुजी पन्ताभ्याम् उत्थापितस्य प्रश्नस्य उत्तर प्रदानक्रमे प्रधानमन्त्री प्रचण्ड भारत भ्रमणावधौ राष्ट्रिय हिते एकतायां च प्रभाव सर्जनात्मकं कार्यं नैव भविष्यतीति समस्पष्टयत्। तत्पूर्वम् उपवेशेन गत विक्रम वर्षीयायाः प्रतिनिधिसभा नियमावल्याः द्वापञ्चाशदधिक द्विशततमस्य नियमस्य अनुसारेण नियम निलम्बन सम्बद्ध प्रस्ताव सर्वसम्मत्या पारितकृत आसीत्। प्रधानमन्त्रिणा सुकमलदाह प्रचण्डेन सह पिपृच्छूणां सांसदानां संख्याया आधिक्यस्य कारणेन गत विक्रम वर्षीया प्रतिनिधिसभा नियमावल्या 65 नियमस्य 5 उपनियम दिनैकस्य कृते निलम्बित आसीत्। उपवेशे प्रधानमन्त्री पुष्पकमलदाहाल प्रचण्ड नेपालस्य संविधानस्य 53 धाराया 64-2000 विक्रम वर्षीयस्य सुशासन व्यवस्थापन संचालनाधिनियमस्य 41 प्रकरणस्य च अनुसारेण नेपाल सर्वकारस्य आर्थिक वर्ष द्वय पूर्वकालिकं वार्षिक प्रतिवेदनं प्रस्तोत। कित्रेमा भूटानदेशीय शरणार्थी प्रकरणे संलग्नताया अभियोगे भूटानदेशीय शरणार्थिनो रूपेण नेपाले विद्यमान भूटानदेशीय नेता टेकनाथ रिजाल नेपाल हज समितेः अध्यक्ष शमशेर मिया च प्रेरणा निगृहितौ स्तः। कृत्रिमा भूटानदेशीय शरणार्थिनो विदाय विदेश प्रेषणस्य कार्ये नेतुः रिजालस्यापि संलग्नता स्थिति आशंकायां प्रेरणा रिजालः निगृहिता इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रमुख प्रहरी वरिष्ठ परीक्षक दानबहादुर कार्की ज्ञापयति। नेतरी रिजाले काष्ठमण्डप जनपद प्रहरी परिसरे प्रश्नोत्तराणां पश्चात् निग्रहणावधेः वर्धनाय काष्ठमण्डप जनपद न्यायालयं नीतेशति। न्यायालयेन अनुसन्धानाय अतिरिक्त दिनद्वयस्य समय प्रदत्तोऽस्ति। कित्रिमा भूटानदेशीय शरणार्थी प्रकरणे आर्थिक वञ्चने नेतुः रिजालस्य संलग्नता दृष्टेति प्रेरणा आरोपितं वर्तते। एवमेव कित्रिमा भूटानदेशीय शरणार्थी प्रकरणे संलग्नतायाः आरोपे नेपाल हज समितेः अध्यक्षः शमशेर मिया प्रेरणा सिंहप्रासादात् निगृहीतो वर्तते। कृत्रिमा भूटानदेशीय शरणार्थिनः रूपेण अमेरिका देश प्रेषणस्य कार्ये संलग्नेन समूहेन सह अध्यक्षस्य मिया इत्यस्य संलग्नतायाः दृष्टेः पश्चात् अध्यक्षः मिया निगृहीतः इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रमुखः प्रहरी वरिष्ठो परीक्षकश्च दानबहादुर कार्की असूचयत। कार्किणः अनुसारेण शरणार्थिनः नाम्नि वञ्चनकार्ये संलग्नाय समूहाय हज समितेः प्रयोगाय प्रदत्तं गृह मन्त्रालय यानम् अध्यक्षेण मिया इत्यनेन प्रदत्तम् आसीत्। चितवन जनपदस्य सौराहस्थाने काष्ठमण्डपस्य सुन्दारा प्रवृत्तिषु स्थानेषु च अन्तर्वार्तायै गमनसमये वञ्चन समूहस्य सदस्यैः यानमेतत् प्रयुक्तमिति अनुसन्धानात् ज्ञातमस्तीति काष्ठमण्डप जनपद प्रहरी परिसरेण ज्ञापितमस्ति। उपप्रधान गृहमन्त्री नारायण काली श्रेष्ठ कथयति अनुचितार्थिक लाभस्य भ्रष्टाचारस्य च सञ्जालं भञ्जयितुं सर्वकारः निरन्तरं संलग्नो वर्तते। नेकपा माओवादी केन्द्रस्य निकटस्थायाः प्रवास समन्वय समितेः सदस्यैः प्रवास क्षेत्रे कार्यरतैः नेपाली बुद्धिजीवीभिश्च सह ह्यः सम्पन्ने मेलने उपप्रधान गृहमन्त्री श्रेष्ठ भ्रष्टाचारं समापयितुं आत्मना नैरन्तर्येण प्रवर्तितमस्ति, अत्र कार्ये नेपाली वैदेशिक समुदायान् नामपि सहयोगः अपेक्षितो स्थिति अगदत। प्रवास समित्या वञ्चन कार्ये मानव तस्करीये कृत्रिम सर्वकार्य प्रपत्र निर्माण कार्ये राज्य विरोधिनी अपराधे च संलग्नान् जनान् कठोरेण दण्डयितुं सर्वकारस्य ध्यानाकर्षणं विहितम् आसीत्। शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई गदति देशात् विद्यार्थीनां पलायनं रोद्धुं शिक्षा प्रणाल्यां सुधारः आवश्यको वर्तते। शिक्षा मन्त्री राई अगदत् परम्परागत विश्वविद्यालयानां पाठ्यक्रमाणां च कारणेनापि यूनां विद्यार्थीनां विदेश पलायनस्य समस्या अस्तीत्यतः यूनां पलायनं रोद्धुं नूतन विश्वविद्यालयैः शिक्षा प्रणाल्यां सुधारेण सहैव विद्यार्थीनां विश्वासो जेतव्यः। ह्यः उपविष्टे राष्ट्रिय सभायाः विधायन व्यवस्थापन समितेः उपवेशे गत विक्रम वर्षीयं नेपाल विश्वविद्यालय विधेयकम् आश्रित्य विहिते विमर्शने सांसदैः उत्थापिताः जिज्ञासाः समाधानो मन्त्री राई विधेयके आवश्यक विषयाणां प्रकरणानां च संशोधन पुरस्सरम् अग्रे वध्यते इत्यभासत।